सर्पापिबन्ति पवनम् न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति कन्दैफलैर्मुनिवराः क्षपयन्ति कालम् सन्तोष एव पुरुषस्य परम् निधानम्।